एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। राष्ट्रिय सभया एतत् विक्रमवर्षीयम् विनियोजन विधेयकम् बहुमतेन पारितीकृतम् वर्तते। अर्थमन्त्रिणा डाक्टर स्वर्णिम वाग्ले विधेयेन प्रतिनिधि सभातः ससन्देशम् प्राप्तम् एतत् विक्रमवर्षीयम् विधेयकम् पारितीक्रियताम् इति निगद्य प्रस्तुतः प्रस्ताव बहुमतेन पारितीकृतोऽस्ति। अनेन सैव संघीय संसद द्वाभ्यामेव सदनाभ्याम् आगामिनः आर्थिक वर्षस्य आयव्ययकम् पारितीकृतम् वर्तते। एतत्पूर्व राष्ट्रियसभाया ह्यस्तनोपवेशे विनियोजन विधेयकम् आधृत्य विभिन्नेषु शीर्षकेषु उत्थापितानाम् प्रश्नानाम् उत्तरम् सम्बद्धैः मन्त्रिभिः दत्तम् अस्ति। उपवेशे विनियोजन विधेयकम् आधृत्य अर्थमन्त्री डाक्टर स्वर्णिम वाग्ले, गृहमन्त्री सुदन गुरूङ, परराष्ट्रमन्त्री शिशिर खनालः, ऊर्जो जलस्रोत सेचन मन्त्री विराज भक्त श्रेष्ठ, उद्योग वाणिज्यापूर्ति मन्त्री गौरी कुमारी, कृषि वन पर्यावरण मन्त्री गीता चौधरी, पूर्वाधार विकास मन्त्री विकास लम्सालश्च स्वस्व मन्त्रालयानाम् विषयेषु सांसदैः उत्थापितानाम् प्रश्नानाम् उत्तरम् दत्तवन्तः। राष्ट्रियसभाया ह्यस्तनोपवेशेन एतद् विक्रमवर्षीयम् आर्थिक विधेयकम् राष्ट्रऋणोत्थापन विधेयकम् च सर्वसम्मत्या स्वीकृते स्तः। उपवेशे अर्थमन्त्रिणा डा स्वर्णिम वाग्ले विधेयेन प्रतिनिधि सभाता ससन्देशम् प्राप्तम् विधेयकम् आधृत्य विचार्यतामिति निगद्य प्रस्तुतः प्रस्तावः सभया स्वीकृतोऽस्ति। प्रतिनिधि सभातः ससन्देशम् प्राप्तम् आर्थिक विधेयकम् राष्ट्रऋणोत्थापन विधेयकम् च आधृत्य परामर्शम् दातुम् इच्छुकै सांसदैः राष्ट्रियसभायाः विधेयक शाखायाम् परामर्शनानि पञ्जीकारयितुम् शक्यते इति ज्ञापितम् अस्ति। राष्ट्रियसभाया ह्य उपविष्टेन द्वितीयोपवेशेन प्रतिनिधिसभातः ससन्देशम् प्राप्तानि चत्वारि विधेयकानि प्रकरणगत विमर्शनाय सम्बद्ध समितौ प्रेषितानि वर्तन्ते। राष्ट्रियसभायाः अपरोपवेशः श्वो बृहस्पतिवासरे दिवा सपाद द्वादशवादने वस्ता। नेपाल राष्ट्रकोषेण ऋण प्रवाहम् विस्तार्य आर्थिक वृद्धौ सहयोग प्रापणस्य लक्ष्येण सह आगामिनः आर्थिक वर्षस्य मौद्रिक नीतिः सार्वजनिकृता वर्तते। नेपाल राष्ट्रकोषस्य अधिष्ठात्रा विश्वनाथ पौडेलेन मौद्रिक नीतिम् सार्वजनिकृत्य आर्थिक वृद्धौ सहयोगम् प्रापयितुम् शिथिल मौद्रिक नीत्यै नैरन्तर्यम् प्रदत्तमस्तीति उक्तम् वर्तते। अधिष्ठात्रा डाक्टर पौडेलेन मौद्रिकनीतेः क्रियान्वयनेन आगामिनि आर्थिक वर्षे नैजक्षेत्रे प्रतिशतम् एकादशभिः अंकैः ऋणविस्तारो भविष्यति। मुद्रास्फीतिः 0.5 अंकेषु सीमिता भविष्यतीति च अनुमितम् अस्तीति सूचितम् वर्तते। अधिष्ठाता डाक्टर पौडेलः सर्वकारेण प्रस्तुतेन आगामिनः आर्थिक वर्षस्य आयव्यय विवरणेन आर्थिक गतिविधौ सुधारो भविष्यति, वैदेशिक मुद्रायां पर्यटने सार्वजनिक व्यये च अतिरिक्त तरलतायाः प्रवाह तरलतायाम् अतिरिक्तं बलसर्जनं च न भविष्यतीति च हेतोः शिथिलतायै लचिलायै च वा मौद्रिकनीत्यै नैरन्तर्यम् प्रदत्तमस्तीति स्पष्टीकृतवान् वर्तते। मौद्रिकनीत्याम् ऋणोद्योगानाम् कृते ऋणप्रवाहस्य बलसर्जने विद्यमानानाम् ऋणीनाम् उत्थानस्य च प्रस्तावः कृतोऽस्ति। भूटानदेशस्य कृत्रिम शरणार्थि प्रकरणे वर्षत्रयात् पूर्वम् पञ्जीकारितस्य अभियोगस्य सन्दर्भे काष्ठमण्डप जनपद न्यायालयेन सर्वे प्रतिवादिनः दोषिणः निर्धारिताः वर्तन्ते। न्यायाधीशस्य तेजबहादुर खड्काविदस्य न्यायपीठेन प्रतिवादिनः पूर्वोप प्रधानमन्त्री टोपबहादुर रायमाझी, पूर्व गृहमन्त्री बालकृष्ण खाँड, तात्कालिक गृह सचिव टेकनारायण पाण्डे, पूर्व सांसद आङटावा शेर्पा, तात्कालिकस्य गृहमन्त्रिणः रामबहादुर थापाविदस्य सुरक्षा परामर्शदाता इन्द्रजित राई चेत्यादयः सर्वेऽपि आरोपिणः दोषिणो निश्चिताः वर्तन्ते। न्यायपीठेन दोषिणां कृते दण्डनं निश्चेतुं न्यायपीठस्य समक्षं परामृष्टुम् आदिष्टम् वर्तते। राष्ट्रिय परीक्षा समित्या एसईई नाम्न्याः गत विक्रम वर्षीयायाः माध्यमिक शिक्षा परीक्षायाः श्रेणीवृद्धि परीक्षायां 10.64% प्रतिशतं विद्यार्थिनः उत्तीर्णाः वर्तन्ते इति ज्ञापितम् अस्ति। समित्या ह्य पूरक परीक्षाया परिणामं प्रकाश्य परीक्षायां 83,023.5% च विद्यार्थिनः उत्तीर्णाः सन्तीति ज्ञापितं वर्तते। परिणामे असन्तुष्टैः विद्यार्थिभिः स्व आषाढस्य 25 दिवसात् 31 दिवसं यावत् पुनर्योगस्य उत्तरपुस्तिकायाः पुनः परीक्षणस्य च कृते आवेदनं दातुं शक्यते इति परीक्षानियन्त्रकः टुकराज अधिकारी असूचयत्। प्रधानमन्त्रिणा बालेन्द्रशाहस्य ऐषयिक विकास कोषस्य अध्यक्षस्य मासातो काण्डा इत्यस्य च मध्ये ह्यो मेलवार्ता सम्भूतास्ति। नेपाल सर्वकारस्य ऐषयिक वित्तकोषस्य च मध्ये 60 वर्षेभ्यः जायमानं विकास सहकार्यम् अतिरिक्तं सुदृढं विधातुं प्रधानमन्त्रिणा शाहस्य ऐषयिक विकास कोषस्य अध्यक्षस्य च मध्ये सम्भूतायां वार्तायाम् उभाभ्याम् अपि पक्षाभ्याम् पारस्परिक सहकार्यस्य कार्याय नैरन्तर्यं प्रदातुं प्रतिबद्धता व्यक्तास्ति। तदवसरे जल विद्युत क्षेत्रं पर्यटन क्षेत्रं च नेपालस्य अर्थतन्त्रस्य मेरुदण्डत्वेन अग्रेसारयितुं पर्यटकीय मार्ग पूर्वाधार निर्माणे सहकार्यं कर्तुं च द्वयोः पक्षयोर्मध्ये समीचीनं विमर्शनं सम्भूतमस्तीति ज्ञापितं वर्तते। प्रधानमन्त्रिणा शाहेन आगामी दिवसेषु सुशासनस्य पारदर्शितायाश्च माध्यमेन नेपालस्य विकासस्य कार्यम् अग्रे गमिष्यतीति विश्वासः व्यक्तोऽस्ति। इति समाचाराः।